अन्तः सदैव जिन यस्य विभाव्यसि त्वं भव्यै कथं तदपि नाशयसे शरीरम् एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावः अन्तः सदैव जिन यस्य विभाव्यसि त्वं भव्यै कथं तदपि नाशयसे शरीरम् एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावः अन्तः सदैव जिन यस्य विभाव्यसि त्वं भव्यै कथं तदपि नाशयसे शरीरम् एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावः अन्तः सदैव जिन यस्य विभाव्यसि त्वं भव्यै कथं तदपि नाशयसे शरीरम् एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावः अन्तः सदैव जिन यस्य विभाव्यसि त्वं भव्यै कथं तदपि नाशयसे शरीरम् एतत्स्वरूपमथ मध्यविवर्तिनो हि यद्विग्रहं प्रशमयन्ति महानुभावः